राम गीता जी का पाठ 11वां अध्याय प्रारंभ से श्लोक 11 तक। राम
वसुदेव सुतं हंसजानुरमर्दनम् देवकी करनानन्दम् कृष्णं वन्दे जगद्गुरुम् मदनोग्रहाय परमं गोह्यमध्यात्मसंहितं नत्वयोक्तं वसस्तेन मोहोऽयं विगतो मम भवाप्ययौ हि भूतानां श्रुतौ विस्तर्शो मया त्वत्तः कमलपत्राक्षो माहात्म्यमभिताव्ययम् एवमेतद्यथार्थ त्वमात्मानं परमेश्वर दृष्टुमेत्सामि ते रूप नैश्वरं पुरुषोत्तम मान्यसे यदि तत्सख्यं मया द्रष्टुमिति प्रभो योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् श्रीभगवानुवाच पश्य मे पार्थरूपाणि सपशोथ सहस्रश नानाविधानि दिव्यानि नानावर्णाकृतीनि च पश्यादेत्यान्वसुन्द्रोद्रानश्विनौ मरुतः सदा बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत इहैकस्थं जगत्कृष्णं भस्याद्य सचराचरौ मम देहे गुडाकेश यच्चान्यद्रष्टुमेच्छसि न तु मां शक्यसे द्रष्टु मनेनैव स्वचक्षुषा वेद्यं ददामि ते चक्षु पश्य मे योगमेश्वर सञ्जयुवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरि दर्शयामास पार्थाय परमं रूपमेश्वर अनेकवक्षनयनमनेकाद्भुतदर्शनम् अनेकदिव्याभरणम् दिव्यानेकोज्यतायुध दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवमनन्तं विश्वतो मुखम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवमनन्तं विश्वतो मुखम् वसुदेव सुतं देवं हंसजानुरमर्दनम् देवकी करनानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरे शरणं 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 Hare Sharanam, 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 Hare Sharanam.